एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः गण्डकी प्रदेशस्य पूर्व प्रदेश प्रमुखस्य पृथ्वीमान गुरूङ इत्यस्य निधनं प्रति दुःखम् अभिव्यज्य स्वर्गीयं गुरूङ इत्यमुं प्रति श्रद्धाञ्जलिम् अभिव्यनक्ति। राष्ट्रपतिना पौडेलेन ह्यः शोक सन्देशं प्रकाश्य लोकतान्त्रिक योद्धा स्वर्गीयेण गुरूङ इत्यनेन लोकतन्त्रस्य स्थापनायै पुनस्थापनायै च प्रापितं योगदानं सदा स्मरणीयमस्तीति उल्लिखितमस्तीति राष्ट्रपतेः स्वकीय सचिवालयेन ज्ञापितं वर्तते। अथ च नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेन च ह्यः शोक विज्ञप्तिं प्रकाश्य गुरूङ इत्यस्य निधनं प्रति दुःखं व्यक्तं वर्तते। नेतुः गुरूङ इत्यस्य ह्यः 67 वयसि स्वस्यैव निवासे निधनं सम्भूतमासीत्। चितवन जनपदस्य नेपाली कांग्रेस दलस्य पूर्व सभापतिश्च गुरूङ 78 विक्रम वर्षस्य श्रावण मासस्य द्वादशे दिवसे गण्डकी प्रदेशस्य प्रमुख पदे नियुक्तः आसीत्। गुरूङ इत्यस्य पार्थिव शरीरस्य अद्य पूर्वाह्नस्य 11 देवघाट धाम्नि अन्त्येष्टि कर्म विधीयमानं वर्तते इति नेपाली कांग्रेस दलेन ज्ञापितम् अस्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति एआई इति कृत्रिम बौद्धिकता नेपालस्य कृते विलासितायाः अपेक्षया समानतायाः रूपान्तरणस्य न्यायस्य च साधनं वर्तते। चीन देशे सांघाई वर्ल्ड आर्टिफिशियल इन्टेलिजेन्स सम्बद्धम् एतत् ख्रीष्टवर्षीयं सम्मेलनं सम्बोधयन् संचार मन्त्री गुरूङ कृत्रिम बौद्धिकतायाः प्राप्तेः समानतायाश्च विषये धारणां व्यक्तवान्। मन्त्री गुरूङ कृत्रिम बौद्धिकतायाः विकासस्य कृते नेपालस्य दृष्टिः समावेशितायां मानवतायां च केन्द्रिता वर्तते इति अगदत्। मन्त्री गुरूङ मानवजातेः उत्थानाय कृत्रिम बौद्धिकतायाः प्रयोगस्य सुनिश्चयनं संयुक्त समाहोयस्य विषयोस्तीति चर्चयन् अत्र सर्वै दायित्ववाहितया कार्यं विधेयम् इत्यत्र बलं दत्तवान्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः नीतिं विचारं च आधृत्य वामपन्थी दलानाम् एकता सम्पादनीयेति उक्तवान् अस्ति। नेपाल कम्युनिष्ट पार्टी इति नाम्नो नेकपा दलस्य संस्थापकस्य पुष्पलाल श्रेष्ठस्य 47 स्मृति दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्षः प्रचण्डः विगत समये वामपन्थी दलानाम् एकतायै जनतया वामपन्थी कार्यकर्तृभिश्च समर्थनं प्रदत्तं सदपि सफलता न लब्धा इत्यत्र दुःखं व्यक्तवान्। असौ अगदत् पुष्पलाल श्रेष्ठस्य विचाराणाम् अनुसरणेन अग्रे वर्धिते सत्येव पुष्पलाल श्रेष्ठं प्रति उचित श्रद्धाञ्जलि भवति। कार्यक्रमे नेकपा एकीकृत समाजवादी दलस्य सम्मानित नेता झलनाथ खनालः केवलं भावनया वामपन्थी दलानाम् एकता न सम्भवतीति चर्चयन् एकतायाः कृते समुचितानां विचाराणां नीतिनां च आवश्यकता अस्तीति उदैरयत्। गृहमन्त्रिणा रमेश लेखकेन विपद संकटग्रस्त क्षेत्रत्वेन उत्कृष्टस्य मधेस प्रदेशस्य स्थानीय स्तराणां प्रमुखै प्रमुख जनपदाधिकारीभिः विमृष्टमस्ति। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ह्य वैद्युत संजालस्य माध्यमेन आयोजिते समन्वयात्मके उपवेशे गृहमन्त्री लेखक पेयजलस्य सेचनस्य च समस्याया समाधानाय सर्वकार तत्परोऽस्तीति अगदत्। अन्नभण्डारस्य रूपेण चर्चिते मधेस प्रदेशे सम्प्रत्यपि 47% धान्यरोपणं सम्भूतमस्ति। दीर्घकालं यावत् अनावृष्टेः कारणात् मधेस प्रदेशस्य कृषकः चिन्तितः वर्तन्ते। पेयजल मन्त्री प्रदीप यादवः भाषते पेयजलस्य प्रयोगम् आलक्ष्य उपभोक्तृभ्यः शुल्कग्रहणस्य परम्परा समापनीया। ह्यः पाल्पा जनपदस्य तानसेन स्थाने तानसेन पेयजलोपभोक्तृ समितेः 10वार्षिक साधारण सभाम् उद्घाटयन् मन्त्री यादवः केनापि उपभोक्त्रा सर्वकारेण निर्मितातः योजनातः पेयजलस्य प्रयोगम् आलक्ष्य शुल्क प्रदेयस्य अवस्था समाप्स्यते इति भाषणम् प्रादात्। साम्प्रतिक्य जीवनशैल्या वातावरणस्य च कारणेन प्रविधेः अत्यधिकस्य प्रयोगस्य च कारणेन नेत्रयोः शुष्कतायाः समस्या प्रतिदिनं वर्धमाना अस्ति त्यतः सावधानताम् अवलम्बितुं विज्ञैः परामृष्टमस्ति। नेत्रयोः ज्वलनं रक्तता मलिनत्वञ्च नेत्रयोः शुष्कतायाः कारणात् सम्भवतीत्यतः सावधानताम् अवलम्बितुं विज्ञैः परामृष्टमस्ति। सप्तरी जनपदस्य रूपनी ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य पौवा स्थाने ह्य सिटी रिक्षायाने विद्युदाधानक्रमे विद्युत प्रवाह स्पर्शेण पति पत्नौ मृतौ स्तः। सुकीय याने विद्युदाधानक्रमे विद्युत प्रवाह स्पर्शेण स्थानीयः पञ्चचत्वारिंशत् वर्षीयः बालेश्वर खङ्ग मण्डलः तस्य पत्नी द्विचत्वारिंशत् वर्षीया रामकुमारी च अम्रियताम् इति सप्तरी जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षकः उदय कुमार राई अज्ञापयत्। स्वस्मिन् एव गृहे याने विद्युदाधानस्य क्रमे पत्यौ विद्युत् प्रवाह ग्रस्ते सति तम् उन्मोषयितुं गता पत्नेऽपि सहैव मृता इति प्रहरिणा ज्ञापितं वर्तते। राष्ट्रिय संग्रहालयेन अमेरिका देशात् प्रत्यावर्त्य आनीतः प्राचीन तिष्ट कलाकृतयः ह्य पुनस्थापनायै इटुम्बहालवर्तिने भास्कर देव संस्कारित केशचन्द्र कृत पारावत महाविहार संरक्षण समाजाय हस्तान्तरिताः वर्तन्ते। उपप्रधान नगरीय विकास मन्त्रिणः प्रकाशमान सिंहस्य उपस्थितौ संग्रहालयस्य प्रमुख अरूणा नकर्मी सप्तत्रिंशदुत्तर द्विसहस्रतम विक्रम वर्षस्य भाद्रमासस्य ऊनत्रिंशे दिवसे चोरिता शतत्रय वर्षाणां प्राचीना चिन्तामणि लोकेश्वरस्य कलाकृतिः पञ्चसप्तत्युत्तर पञ्चशत वर्ष प्राचीना गगन सिंह भारोया इत्यस्य तदीय पत्न्या थाङ्का पौवा इत्यस्याश्च कलाकृतिः एकविंशत्यधिक शतत्रय वर्ष प्राचीना केशचन्द्र सहितस्य भैरवस्य कलाकृतिश्च ह्य महाविहार संरक्षण समाजाय हस्तान्तरिताः वर्तन्ते। चोरिताः कलाकृतयः अमेरिकादेशं प्रापिताः सन्तीति सूचना प्राप्तेः पश्चात् आवश्यकं समन्वयं विधाय पञ्चचत्वारिंशो वर्षाणाम् अनन्तरं गतफाल्गुनमासस्य एकोनविंशे दिवसे नेपालं प्रत्यानीय राष्ट्रिय संग्रहालये स्थापिताः आसन्। मुस्ताङ जनपदस्य लोमान्थाङ ग्रामपालिकया पालिकायाः अभ्यन्तरे निवसद्भ्यः परिवारेभ्यः वैद्युत चुल्लिकाः प्रदत्ताः वर्तन्ते। ग्रामपालिकायां केन्द्रीय विद्युत प्रसारणस्य प्राप्त्या सहैव दुर्बलार्थिकवस्थावद्भ्यः अपाङ्गतायुतेभ्यः ज्येष्ठ नागरिकेभ्यश्च दशाधिकशतद्वयाय परिवारेभ्यः वैद्युत चुल्लिकाः वितीर्णाः सन्तीति ग्रामपालिकायाः अध्यक्षः असूचयत्। सोलुखुम्बु जनपदस्य द्वयशीति मेगावाट मित क्षेमायाः अवरतन जलविद्युत आयोजनायाः विद्युत राष्ट्रिय प्रसारणे योजितास्ति। इति समाचारः।